कृपांकुरु जगन्मातरमामेवं हततेजसं गुरुशापात् स्मृतिभ्रष्टं विद्याहीनं च दुःखितं ज्ञानं देहि स्मृतिं देहि विद्यां देहि देवते प्रतिष्ठा कवितां देहि शाक्तं शिष्य प्रबोधिकं ग्रंथ निर्मिति शक्तिं च सच्छिष्यं सुप्रतिष्ठितं प्रतिभा सत्सभाया च विचार क्षमता शुभा लुप्ता सर्वान् दैव वशान्नवं कुरु पुनः पुनः यथाकुरं जनयति भगवान् योग मायया ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी सर्वविद्याधिदेवी या तस्यैवान्यै नमो नमः यया विना जगत् सर्वं शश्वत् जीवन् कुन्देन्दु कुमुदाम्बोज सन्निभा वर्णादि देवी या तस्यै चाक्षराये नमो नमः विसर्ग बिन्दु मात्राणां यदधिष्ठानमेव च इत्थं त्वं गीयसे सद्भिर्भारते नमो नमः यया विनात्र संख्या कृत संख्या कर्तुं न शक्नुते श्रीकृष्ण ईश्वर उवाच सचतम स्तौ हि वाणीमिति प्रजापते स चतुष्टावतां ब्रह्मा चाज्ञया परमात्मनः चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् यदा प्रणनतं पप्रच्छ ज्ञानमेको वसुन्धरा बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुम् अक्षमः तदा त्वां च सतुष्टा वसन्त्रस्त कश्यपाज्ञया ततश्चकार सिद्धान्तं निर्मलं ब्रह्मभञ्जनम् व्यास पुराणसूत्रं च पप्रच्छ वाल्मीकिं यदा मौनीभूतः स संस्मार त्वामे जगदम्बिकाम् तदा चकार सिद्धान्तं त्वत्वरेण मुनीश्वरः स प्राप निर्मलं ज्ञानं प्रमादद्धं सकारणम् पुराणसूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः त्वां शिशेवे च दध्योतं शतवर्षवर्च पुष्करे तदत्तत्तो वरं प्राप्य स कविन्द्रो बभूवः तदा वेद विभागं च पुराणानि चकारः यदा महेन्द्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवं क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं दधौ विभु पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिं किद्दं वर्षसहस्रं च सकोम् चपस्करो वेदाङ्गतो वरम् गङ्गदीप्तं वर्षसहस्रकम् उवाच सप्तशास्त्रं शपदर्थं च सुविस्तरम् अच्छाभिभाषयै शिष्याचैरभीतं लुकीश्वरैः ये च पापणि पञ्चिन्त्य प्रवर्तन्ते सुरेश्वरि पुंस्तत्स्फुता भोजिका च मुनिं भ्रमनुमानरैः ध्वनीभूतः सहसा स्म पुञ्जवन्तश्च गुणमुखः यांसो दुःखिमहं सोमि कामेकः सेनुरानवः वित्तन्ताया कुवर्जश्च भक्तिन प्रातकन्दरः I'm शमीकं च यःपदे सपन्दि पश्चमीधावे सुकविश्च प्लवेत्तवो.